नमस्सर्वेभ्यः अद्य शिक्षावर्गस्य एकविंशः पाठः नवम्बर् मासस्य सप्तदशः दिनाङ्कः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो गतवर्गे तान्त्रिकसमस्याकारणेन वर्गः व्याक्षिप्तः ततः पूर्वस्मिन् सप्ताहे वयं शतृप्रत्ययस्य अध्ययने सामान्यधातूनां तथा विशेषधातूनां शतृप्रत्ययान्तं रूपं पुल्लिङ्गे प्रथमाविभक्तौ किं रूपं भवति इति ज्ञातवन्तः काव्यांशेषु काव्यकथायां शिशुपालवधस्य कथायाः कञ्चन भागम् अधीतवन्तः अद्य किञ्चित् पुनरावृत्य अग्रे गच्छामः शत्रुप्रत्ययः वर्तमानकाले कर्त्रर्थे परस्मैपदिभ्यः धातुभ्यः भवति आत्मनेपदिभ्यः शानच् भवति इति अग्रे पठामः यदि धातुः उभयपदी भवति तर्हि शत्रिशानचौ उभौ अपि भवतः शत्रुप्रत्यये अत् इति भागः रूपे श्रूयते सो पठत् वदत् इत्यादीनि शत्रुप्रत्ययान्तानि रूपाणि प्रातिपदिकं भवति तकारान्तं प्रातिपदिकं तस्य पठन् पठन्तौ पठन्तः वदन् वदन्तौ वदन्तः नृत्यन् नृत्यन्तौ नृत्यन्तः इत्यादि सामान्यधातूनां रूपाणि भवन्ति केषाञ्चित् विशिष्टधातूनां रूपाणि अपि दृष्टवन्तः तत्र करोति इत्यस्य कुर्वन् कुर्वन्तौ कुर्वन्तः इति भवति चतुर्प्रत्ययान्तं रूपं ज्ञातुं मार्गः लट्लकारे प्रथमपुरुषे बहुवचनरूपं ज्ञातव्यं करोति कुरुतः कुर्वन्ति तत्र ति इत्यंशं विहाय यदस्ति तदेव शत्रुप्रत्ययान्तस्य प्रथमाविभक्तौ रूपं भवति एकवचनरूपं कुर्वन् एवं शृणोति शृण्वन्ति शृण्वन् शृण्वन् शृण्वन्तौ शृण्वन्तः चिनोति चिन्वन् चिन्वन्तौ चिन्वन्तः शक्नोति शक्नुवन् शक्नुवन्तौ शक्नुवन्तः प्राप्नोति प्राप्नुवन् प्राप्नुवन्तौ प्राप्नुवन्तः क्रीणाति अत्र तु क्रीणाति क्रीणीतः क्रीणन्ति इति रूपं क्रीणन् क्रीणन् क्रीणन्तौ क्रीणन्तः जानन् जानन्तौ जानन्तः गृह्णन् गृह्णन्तौ गृह्णन्तः बध्नन् बध्नन्तौ बध्नन्तः मथ्नन् मथ्नन्तौ मथ्नन्तः रोदिति रुदितः रुदन्ति रुदन् रुदन्तौ रुदन्तः ब्रुवन् ब्रुवन्तौ ब्रुवन्तः दा धातुः अस्ति ददाति दत्तः ददति इति रूपम् अत्र ददत् ददतौ ददतः एवमेव बिभ्यत् बिभ्यतौ बिभ्यतः जुह्वत् जुह्वतौ जुह्वतः सो अत्र शत्रन्ते नकारः न भवति यत्र बहुवचनरूपे नकारः नास्ति ददाति दत्तः ददति बिभेति बिभीतः बिभ्यति जुहोति जुहुतः जुह्वति यत्र बहुवचनान्ते नकारः नास्ति तत्र शत्रुप्रत्ययान्तेऽपि नकारः न भवति तत्तु बहु न्यूनं केषाञ्चित् विशिष्टधातूनामेव तथा भवति रूपाणि ज्ञातवन्तः एकम् अद्य तत्र अभ्यासः दत्तः आसीत्, तत्र शतृप्रत्ययान्तरूपाणि वक्तव्यानि पुल्लिङ्गे प्रथमाविभक्तौ इत्येव ये वक्तुमिच्छन्ति कृपया हस्तमुन्नयन्तु। वीरभद्रराव
गुड् मार्निङ्ग्, श्रूयते वा?
हा श्रूयते।
गच्छति, गच्छन्ति इति बहुवचना फर् प्रथमाविभक्ति एण्ड् फर् शत्रुपचय गच्छन् गच्छन्तौ गच्छन्तः पिबति पिबन्ति पिबन् पिबन्तौ पिबन्तः
सम्यक्
खादति खादन् खादन्तौ खादन्तः
उत्तमम्। अग्रे शोभा भगिनी
नमस्ते। क्षिपति क्षिपन् क्षिपन्तौ क्षिपन्तः नृत्यति नृत्यन् नृत्यन्तौ नृत्यन्तः स्वीकरोति स्वीकुर्वन् स्वीकुर्वन्तौ स्वीकुर्वन्तः।
सम्यक्, धन्यवादः। सीता
नमस्ते भगिनि।
ददाति
ददति ददत् ददतौ ददतः क्रीणाति क्रीणन् क्रीणन्तौ क्रीणन्तः सङ्गृह्णाति सङ्गृह्णन् सङ्गृह्णन्तौ सङ्गृह्णन्तः।
सम्यक्,
धन्यवादः भगिनि।
रामनाथ
आनयति आनयन् आनयन्तौ आनयन्तः रुदन् रुदन्तौ रुदन्तः विजानाति विजानन् विजानन्तौ विजानन्तः।
सम्यक्, ललिता सिंह।
यस नमस्कार। शक्नोति शक्नुनन् शक्नुवन्
शक्नुवन्
शक्नुवन् शक्नुवन् शक्नुवन्तौ शक्नुवन्तः।
सम्यक्,
प्राप्नोति प्राप्नोति प्राप्नुन् प्राप्नुनन् प्राप्नुवन् प्राप्नुवन्तौ प्राप्नुवन्तः।
सम्यक्,
विभेति दिस् विल् नाट् हेव् एन् न सो विभेत
विभेतौ विभ्यत्
विभ्यत् विभ्यतौ विभ्यतः।
सम्यक्, विभ्यत् विभ्यतौ विभ्यतः, उत्तमम्। अग्रे शत्रुप्रत्ययान्तम् उपयुज्य वाक्यद्वयं योजनीयम्। अत्र क्रियापदमस्ति तिङन्तं, तस्य स्थाने शत्रुप्रत्ययान्तं रूपं वक्तव्यम्। महालक्ष्मी
नमस्ते। जनाः नृत्यं पश्यन्ति करताडनं कुर्वन्ति जनाः नृत्यं पश्यन्तः करताडनं कुर्वन्ति।
सम्यक्, जनाः नृत्यं पश्यन्तः करताडनं कुर्वन्ति।
अहं कार्यालयात् आगच्छामि शाकानि क्रीणामि अहं कार्यालयात् आगच्छन् शाकानि क्रीणामि।
उत्तमम्। अहं कार्यालयात् आगच्छन् शाकानि क्रीणामि। धन्यवादः अविनाश वैद्य।
नमस्ते मैडम। हनुमान समुद्रं लंघितवान् मैनाकं दृष्टवान्। हनुमान समुद्रं लंघिन
लंघयन्
मेनकां दृष्टवान्
मैनाकं दृष्टवान्
मैनाकं दृष्टवान्
लंघयन् सो लंघ धातुः। देयर आर डिफरेंट लंघ धातु। देयर इज वन लंघते आत्मनेपदी एंड देयर इज लंघति लंघयति सो लंघयन्
लवकुशौ रामायणं गायतः अयोध्यां संचरथ। लवकुशौ रामायण गायन्तौ अयोध्यां संचरथ।
अयोध्यायां संचरथ। सो रामायणं गायन्तौ अयोध्यायां संचरथः। अग्रे अन्ये केपि वक्तुम् इच्छन्ति? रामानुजम्
नमस्ते मान्य। तवं त्वं वस्त्रं क्रीणासि सर्वं धनं व्ययीकृतवान्। त्वं वस्त्रं क्रीणन् सर्वं धनं व्ययीकृतवान्।
सम्यक्। वस्त्रं क्रीणन् सर्वं धनं व्ययीकृतवान्।
ते कार्यं कर्तुं शक्नुवन्ति न कुर्वन्ति। ते कार्यं कर्तुं शक्नुवन्तः न कुर्वन्ति।
उत्तमं। ते कार्यं कर्तुं शक्नुवन्तः न कुर्वन्ति। रमेश
नमस्ते। राम लक्ष्मणौ पितुः आज्ञां शिरसा गृहीतः विश्वामित्रम् अनुसरतः। राम लक्ष्मणौ पितुः आज्ञां शिरसा गृह्णन्तौ विश्वामित्रम् अनुसरतः।
गृह्णन्तौ विश्वामित्रम् अनुसरतः। सो आज्ञां शिरसा गृह्णाति इति संस्कृतस्य विशिष्टः प्रयोगः। सो बेरिङ्ग् द आर्डर् आन् देर् हेड्स् फालोयिङ्ग् हिस् आर्डर् इत्यर्थः। आज्ञाम् अनुसरन्तौ इति शिरसा गृह्णाति इति विशिष्टः प्रयोगः।
बालः कलति पतति रोदिति मातुः समीपं दावति। बालः स्खलन् पतन् रुदन् स्खलन् पतति रुदन् मातुः समीपं दावति।
सम्यक्। बालः स्खलन् पतति रुदन् मातुः समीपं धावति। उत्तमम्। पद्मनाभन्
कृषकाः भूमिं कर्षन्ति बीजानि वपन्ति। कृषकाः भूमिं कर्षन्तः बीजानि वपन्ति। सस्यानि सम्यक् पुष्णन्ति उत्तमं फलं प्राप्नुवन्ति। सस्यानि सम्यक् पुष्णन्तः उत्तमं फलं प्राप्नुवन्ति।
भूमिं कर्षन्तः बीजानि वपन्ति सम्यक् पुष्णन्तः। सो पुष्णाति नरिश् नरिश् सत्यं। सो सम्यक् पालयन्ति इत्यर्थः। उत्तमं फलं प्राप्नुवन्ति। भूमिं कर्षन्ति Karshanti is to plow the land. Bijani vapanti, sow the seeds.
Gayakaha bhakti bhavam anubhavati gayati. Gayakaha bhakti bhavam anubhavan gayati. Janaha shunvanti ashrupuritaha bhavanti. Janaha shunvansaha ashrupuritaha bhavanti.
So, bhakti bhavam anubhavan gayati shrinvantaha janaha ashrupuritaha bhavanti. Uttamam. So, agre gachhamaha pullinge prathama vibhakti rupani jnatani. Idanim shatruprathayantaha visheshanam bhavati. Visheshanasya prayogam vayam katham kurmaha. Balaha patanna likhati ityasti. So, kaha likhati? Likhati iti pradhana kriya. Kaha likhati? Balaha likhati. So, kidrashaha balaha likhati. Tatra patanna balaha likhati. So, balaha iti visheshyam bhavati. Shatruprathayantam yadasti patan iti tat tasya visheshanam bhavati. So samanyam samanyataha yatha visheshanasya prayogam kurmaha. Udaharanartham sundaraha balaha likhati. Sundaram balam pashya. Sundarena balena kathyate. Sundaraya balaya dehi. Sundarat balat svikuru. Sundarasya balasya graham. Sundare bale pritihi asti. Evameva yadi bahuvachanam asti tarhi sundaraha balaha likhanti. Yadi strilingam asti sundari balika likhati. So yallingam yadvachanam yacha vibhaktihi visheshyasya tallingam tadvachanam sacha vibhaktihi visheshanasyapi iti niyamah kila. So shatruprathyayante api tathaiva bhavati. Patan balaha likhati. Vayam prathama vibhakto samanyataha balaha patan likhati iti likhamaha. Samanameva krama parivartane arthabhedaha kopi na bhavati. Ayameva arthaha patan balaha likhati. The boy who is reading also writes. Sayeva arthaha. So patan ityasya yaha pathati saha ityarthaha. Patan balaha likhati. Pathantam balam pashya. Pathata balena kathyate. Pathate balaya dehi. Pathatah balat svikuru. Pathatah balasya griham. Pathati bale pritihi asti. Evam yatha visheshanasya prayogah sundaraha sundaram sutena evam eva shatruprathyantasya api. So shatruprathyantah api visheshanam eva. Ataha bhinnasu vibhaktishu vachaneshu lingeshu visheshyam anusritya prayogah bhavati. So evam vakyanam rachanam kartum shabda rupani jnatavyani. Tatra takarantaha pullingaha pathat shabdaha. So rupani bhavanti. Aham ekavaram pathayami kopi anuvadatu. Kopi anuvaktum icchati. Shobha bhagini. Takarantah pullingaha pathat shabdaha
तकारान्तः पुल्लिङ्गः पठत् शब्दः
पठन् पठन्तौ पठन्तः
पठन् पठन्तौ पठन्तः
हे पठन् हे पठन्तौ हे पठन् पठन्तः
हे पठन् हे पठन्तौ हे पठन्तः
पठन्तं पठन्तौ पठतः
पठन्तं पठन्तौ पठतः
पठता पठद्भ्यां पठद्भिः
पठता पठद्भ्यां पठद्भिः
पठते पठद्भ्यां पठद्भ्यः
पठते पठद्भ्यां पठद्भ्यः
पठतः पठद्भ्यां पठद्भ्यः
पठतः पठद्भ्यां पठद्भ्यः
पठतः पठतोः पठताम्
पठतः पठतोः पठताम्
पठति पठतोः पठत्सु
पठति पठतोः पठत्सु
सम्यक् सो अस्य शब्दस्य कण्ठस्थीकरणं यदि क्रियते तर्हि वाक्यप्रयोगे बहु उपयोगाय भवति यदि रूपाणि ज्ञायन्ते तर्हि सुलभतया वाक्यं दृष्ट्वा प्रयोगं कर्तुं शक्नुमः इदानीं भिन्नविभक्तिषु कथं प्रयोगः भवति इति पश्यामः सो द्वितीया विभक्तिः द्वितीया विभक्तौ किं रूपं पठन्तं पठन्तौ पठतः सो पठन् पठन्तौ पठन्तः पठन्तं पठन्तौ पठतः सो जनाः वनं गच्छति इत्यस्ति तस्य शत्रन्तं रूपम् आवश्यकं रामं दृष्ट्वा रुदितवन्तः जनाः रामं दृष्ट्वा रुदितवन्तः कीदृशं रामं दृष्ट्वा सो यः रामः गच्छन् आसीत् सो गच्छन् इत्यस्य द्वितीया विभक्तिरूपं वक्तव्यम् रामानुजम्
जनाः वनं गच्छन्तं रामं दृष्ट्वा रुदितवन्तः
सम्यक् जनाः वनं गच्छन्तं रामं सो गच्छन्तं रामं दृष्ट्वा रुदितवन्तः सो रामः गच्छन् आसीत् तं दृष्ट्वा रुदितवन्तः कुत्र गच्छन् वनं गच्छन् आसीत् सो वनं गच्छन्तं रामं दृष्ट्वा रुदितवन्तः सो आरक्षकाः चोरं बद्धवन्तः सो चोरं बद्धवन्तः कीदृशं चोरं बद्धवन्तः यः अपहरन् आसीत् सो यः चोरः अपहरन् तं बद्धवन्तः सुधा भगिनी
आरक्षकाः अपहरन्तं चोरं बद्धवन्तः
सम्यक् आरक्षकाः अपहरन्तं चोरं बद्धवन्तः सः बालं दृष्ट्वा हसितवान् सो कीदृशं बालं दृष्ट्वा हसितवान् यः बालः पतति स्म पतन् आसीत्
महालक्ष्मी
सः पतन्तं बालं दृष्ट्वा हसितवान् सः पतन्तं बालं दृष्ट्वा हसितवान् सो रामः मृगम् अनुसृतवान् मृगम् अनुसृतवान् कीदृशं मृगम् अनुसृतवान् यः धावन् आसीत्
रामः धावन्तं मृगम् अनुसृतवान्
सम्यक् रामः धावन्तं मृगम् अनुसृतवान् धावन्तं मृगम् अनुसृतवान् सो गोपी कृष्णबलरामौ गृहीतवती सो गोपी कृष्णबलरामौ गृहीतवती सो कीदृशौ कृष्णबलरामौ यौ नवनीतं चोरयतः सो चोरयन् चोरयन्तौ सो कृष्णबलरामौ नवनीतं चोरयन्तौ तौ गृहीतवती अतः गोपी नवनीतं अविनाश्वैद्य
गोपी नवनीतं चोरयन्तौ बलरामौ गृहीतवती
सम्यक् सो गोपी नवनीतं चोरयन्तौ कृष्णबलरामौ गृहीतवती सो चोरयन्तौ द्वितीया विभक्तौ प्रथमा विभक्तौ द्विवचने रूपं समानं चोरयन् चोरयन्तौ चोरयन्तः चोरयन्तं चोरयन्तौ चोरयतः अतः नवनीतं चोरयन्तौ कृष्णबलरामौ गृहीतवती ललिता सिंह जनाः लवकुशौ दृष्ट्वा चकिताः कीदृशौ लवकुशौ
गायन्तौ
सम्यक् जनाः गायन्तौ लवकुशौ दृष्ट्वा चकिताः उत्तमम् सो भीमार्जुनौ दृष्ट्वा दुर्योधनः भीतः कीदृशौ भीमार्जुनौ रामनाथ
गर्जन्तौ भीमार्जुनौ दृष्ट्वा दुर्योधनः भीतः
कोपेन गर्जन्तौ भीमार्जुनौ दृष्ट्वा दुर्योधनः भीतः सो बालकान् पश्यतु सो कीदृशान् बालकान् पश्यतु शैलजा
नमो नमः क्रीडतः बालकान् पश्यतु
उत्तमं क्रीडतः बालकान् पश्यतु क्रीडन्तं क्रीडन्तौ क्रीडतः राजेश्वरी पंडितान् मानय कीदृशान् पंडितान्
रक्षन्तः पंडितान् मानयः
मानय पुनः
रक्षतः
सो द्वितीया विभक्तौ रक्षतः
रक्षतः पंडितान्
रक्षन्तं रक्षन्तौ रक्षतः सो वेदं रक्षतः पंडितान् मानय सीता
असत्यं वदतः दुर्जनान् जनाः दूरीकुर्वन्ति
उत्तमम् असत्यं वदतः दुर्जनान् दुर्जनान् कीदृशान् असत्यं वदतः दुर्जनान् जनाः दूरीकुर्वन्ति अन्ये केऽपि वक्तुमिच्छन्ति इन्दिरा देवी You have to unmute yourself. So, Karmakaran Swami Akshiptavan. Kidrishan Karmakaran.
Tushnim Tishtataha Karmakaran Swami Akshiptavan.
Tushnim Tishtataha Karmakaran Swami Akshiptavan. So, ye Karmakaraha Karyam na Kurvanti. Tushnim तिष्ठन्ति तान् आक्षिप्तवान् आक्षेप इस् टु नाट् थ्रो सो क्षिप्तवान् क्षिपति इस् टु थ्रो आक्षिपति इस् टु वाट् टु सेन्शर् टु स्कोल्ड् सो आक्षेपं करोति इस् टु ऐ एम् नाट् गेटिङ्ग् द एक्साक्ट् वर्ड् to complain or to censure so nindati tarjayati ityarthah akshipati ityas So, tushnim tishthatah karmakaran swami akshiptavan. So, evam dvitiya vibhaktehe prayogaha krataha. So, samana ritya anya vibhaktinam api bhavati yatha tritiya vibhaktim pashyamaha. So, tritiya vibhaktau kim rupam bhavati. So, patan patantau patantaha, patantam patantau patataha, patata patadbhyam patadbhihi. So, patata patadbhyam patadbhihi. So, katham bhavati, shunakena uchaihi bhashitam. So, shunakena uchaihi bhashitam. So, kidrishena shunakena. Yaha griham rakshati, yaha griham rakshan asit, tadrishena shunakena.
Griham rakshata shunakena uchaihi bhashitam.
Ha. Griham rakshata shunakena uchaihi bhashitam. So, ayam karmani prayogaha. So, yadi anuvadah karaniyaha. So, the dog which was protecting the house barked loudly. Tasya karmani. Tra karmani prayogaha. Angla bhashaya tatha na shobhate. Samskritetu yuktam bhavati. So, griham rakshata shunakena uchaihi bhashitam. Taihi karataadanam kritam. Kidrishaihi taihi. So, ye ganam shrinvantaha asan taihi. So, ganam Veerabhadra Rao.
Yeah. Ganam shrinvataha.
Shrinvata shrinvadbhyam.
Shrinvad. So, ganam shrinvadbhyaha taihi kartadanam kutam.
Shrinvadbhihi. Shrinvata shrinvadbhyam shrinvadbhihi. So, ganam shrinvadbhihi taihi karataadanam kritam. So, jaya vijayabhyam sanakadayaha varitaha. So, jaya vijayabhyam, by jaya and vijaya, sanakadayaha. So, vishnum drashtum agatavantaha, sanakaha, sanandanaha, ityadayaha, munayaha, te varitaha. So, avaruddhaha, they were stopped, they were prevented. So, kidrishabhyam jaya vijayabhyam, yau vaikunthasya dvare tishthantau astam. So, tabhyam. Avinash. Wait.
Vaikunthasya dvare
tishtadbhyam jaya vijaya
jayam sanakadaya vyavarita
vaikunthasya dvare tishtadbhyam jaya vijaya bhyam sanakadaya varitah. So balaihi kolahalaha kritaha. So kidrishaihi balaihi kolahalaha kritaha. Rajeshwari.
Kridadbhyam.
Na. Bahuvachane. Kridadbhihi.
Kridadbhihi balaihi kolahala kritaha.
Sammyak. So kridata kridadbhyam kridadbhihi. Kridadbhihi balaihi kolahalaha kritaha. उत्तमम् तेन दोषः कृतः सो कीदृशेन तेन यः नियमं जानाति स्म तेन सो जानन्
तेन नियम तिनम नियमम जानभी
न तेन एकवचनमेव
एक तेन नियम जानता अपि दोषः कृतः
सम्यक् तेन नियमं जानता अपि सो यद्यपि नियमं जानाति तथापि सो तेन नियमं जानता अपि दोषः कृतः एवम् अन्यासु विभक्तिषु अपि प्रयोगः भवति सो अर्थम् आश्रित्य भिन्नासु विभक्तिषु प्रयोगः क्रियते इदानीम् एकस्य सर्वासु विभक्तिषु प्रयत्नं कुर्मः नृत्यन् युवकः अस्ति युवकः नृत्यति सो अस्य भिन्नासु विभक्तिषु प्रयोगः कथं भवति इति पश्यामः शैलजा
नमो नमः
नृत्यन्
नृत्यन् युवकः नृत्यन्तं युवकम्
न न गायति इत्यस्ति तत्र का विभक्तिः भवति
क्षम्यतां नृत्यन् युवकः गायति
नृत्यन् युवकः गायति सम्यक् अग्रे आह्वय
नृत्यन्तं युवकम् आह्वय
सो नृत्यन्तं युवकम् आह्वय सम्यक्
नृत्यता युवकेन उक्तम्
उत्तमं नृत्यता युवकेन उक्तम्
नृत्यते युवकाय धनं देहि
सम्यक् नृत्यते युवकाय धनं देहि
नृत्यतः युवकात् किमर्थं बिभेषि
नृत्यतः युवकात् किमर्थं बिभेषि बिभेषि वै आर् यु स्केर्ड् आफ् सो यत्र भी धातोः प्रयोगः तत्र पञ्चमी भवति पञ्चमी विभक्तिः
नृत्यतः युवकस्य चित्रं
सम्यक् नृत्यतः युवकस्य चित्रम्
नृत्यति युवके मात्सर्यं मास्तु
नृत्यति युवके मात्सर्यं मास्तु सो मात्सर्यं जेलसी और् एन्वि सो एवम् अर्थम् आश्रित्य सर्वासु विभक्तिषु प्रयोगः कर्तुं शक्यते सो एवम् एकं पदं स्वीकृत्य भवद्भिः एव वाक्यानि लेखितुं शक्यानि सो एकं शत्रन्तं स्वीकृत्य लिखन् बालः किमपि धावन् अश्वः इत्यादि स्वीकृत्य सर्वासु विभक्तिषु एकैकं वाक्यं लिखन्ति चेत् अभ्यासः भवति वाक्ये प्रयोगस्य पुनः समानः अभ्यासः युध्यन्तः सैनिकाः केऽपि वक्तुमिच्छन्ति सुधा भगिनी
फस्ट् युध्यन्तः सैनिकाः जयन्ति
युध्यन्तः सैनिकाः जयन्ति
जयन्ति देन् इट् इस् युध्यतः सैनिकाः श्लाघय
सैनिकान् युध्यतः
सैनिकान्
श्लाघय इस् टु प्रेज्
देन् युद्धभिः सैनिकैः देशः रक्षितः
युध्यद्भिः सैनिकैः देशः रक्षितः
देन युध्यद्भ्यः सैनिकेभ्यः नमः
सम्यक् युध्यद्भ्यः सैनिकेभ्यः नमः
देन युध्यद्भ्यः सैनिकेभ्यः कः रक्षति
सो हु विल प्रोटेक्ट फ्रॉम द फाइटिंग सोल्जर्स सो तत्र पंचमी
देन षष्ठी इज युध्यतां सैनिकानां वीर्यं अपारम्
So, vīryam apāram. So, their valor is unlimited. Yudhyatām sainikānām vīryam apāram.
Then, the seventh one is yudhyati. Yudhyati was ekavachanam. I forgot the bhagavachanam.
Yudhyati, yudhyatoh, yudhyatsu.
Yudhyatsu sainikeshu vishvāsam kurmaha.
सम्यक् युध्यत्सु सैनिकेषु विश्वासं कुर्मः लेट् अस् ट्रस्ट् द फैटिङ्ग् सोल्जर्स् सो एक्स्क्यूस् मी जस्ट् वन् मोमेण्ट् प्लीस् सो एवं भिन्नासु विभक्तिषु पुल्लिङ्गरूपाणां प्रयोगम् अभ्यस्यन्तु सो पुनः श्वः अपि किञ्चित् अभ्यासं कृत्वा नपुंसकलिङ्गे स्त्रीलिङ्गे कथं रूपाणि कथं प्रयोगः भवति इति पश्यामः सो अत्र प्रश्नाः आक्षेप आब्जेक्ट् आर् रेप्रिमाण्ड् अड्मोनिश् भिन्नानि पदानि सन्ति आक्षेपं करोति अथवा आक्षिपति इत्यस्य सो रक्षता रक्षित उभयोः कः भेदः इति प्रश्नः सो रक्षितः यथा देशः रक्षितः सः अपि कृदन्तः भूतकृदन्तः कृतप्रत्ययः द कण्ट्री वास् प्रोटेक्टेड् सो रक्षता इति तु शत्रन्तस्य तृतीया सो बै द सोल्जर् हू ईस् प्रोटेक्टिङ्ग् सो देशं रक्षता सैनिकेन किमपि कृतं वेरस् देशः रक्षितः सो उभयमपि कृदन्तमेव भिन्न अर्थः भिन्नः अन्ये केऽपि प्रश्नाः सन्ति वा एनि क्वश्चन्स् इन् वाट् वी डिड् सो फार् श्वः शत्रन्तानाम् अध्ययनम् अनुवर्तयामः सो काव्यांशेषु सुभाषितानि करेश्लाघ्यस्यादः शिरसि गुरुपादप्रणयिता मुखे सत्यावाणी विजयि भुजयोर्वीर्यमतुलम् हृदि स्वच्छा वृत्तिः श्रुतमधिगतञ्च श्रवणयोः विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् दीर्घः श्लोकः किन्तु अन्वयं कर्तुं सरलः यतोहि अन्तिमवाक्ये एव अन्वयस्य अवकाशः कोऽपि प्रयत्नं कर्तुमिच्छति
पदच्युतः कैराग्यः त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी विजयि भुजयोः वीर्यम् अतुलं हृदि स्वच्छा वृत्तिः श्रुतम् अधिगतं च श्रवणयोः विना अपि ऐश्वर्येण प्रकृतिमहतां मण्डनम् इदम्. सन्धिः श्लाघ्यः त्यागः विसर्गसन्धि सकारः भुजयोः वीर्यम् अतुलं भुजयोर्वीर्यम् अतुलं विसर्गसन्धि रेपः अधिगतं च अनुस्वारसन्धिः विना अपि सवर्णदीर्घसन्धि अपि ऐश्वर्येण यणुसन्धि. सामान्यतः गुड् क्वालिटीस् आर् द अडोन्मेण्ट् फर् द लिम्स् आफ़् द बाडी. Giving alms and doing charity adorns the hands. Bowing down one's head to elders in humility is the adornment for head. Truthful speech adorns the mouth. For the arms, the strength which brings victory is the adornment. A clear conscience adorns the heart. Words of wisdom which are heard are the ornament for ears. But all these adorn noble people, though even if they do not possess any wealth.
So, vinabhi aishvaryena prakriti mahatam, ye prakritya mahantaha, tesham idam mandanam.
Vakya vishleshanam, kriyapadam bhavati, pratama adhyahatam, pratama vibhaktihi, shlagyah tyagah, गुरु प्राद प्रणयिता सत्या वाणी विजयी वीर्यम अतुलम स्वच्छा वृत्तिः श्रुतम अधिगतम मंडनम इदम्. तृतीय विभक्ति ऐश्वर्येण षष्ठी विभक्ति भुजयोः श्रवणयोः प्रकृति महताम. सप्तमी करे
भुजयोः श्रवणयोः इत्यपि सप्तमी यतोहि सर्वत्र सप्तमी एव अस्ति. सो भुजयोः श्रवणयोः इत्यपि सप्तमी एव.
ओके, भुजयोः भूषणं
यथा करे श्लाघ्यः त्यागः इन् द हेण्ड्. सो भुजयोः इन् द हेण्ड् सोरि इन् द आर्म्स् द अडोर्न्मेण्ट् इस् वीर्यम्.
सप्तमी करे शिरसि मुखे हृदि भुजयोः श्रवणयोः अव्ययं च विना अपि. पद अन्वयः क्रियापदं भवति किं भवति मण्डनं भूषणं कीदृशं मण्डनम् इदम् एतत् केषां मण्डनं भवति प्रकृति महताम् स्वभावेन सद्गुणी केन विना मण्डनं भवति ऐश्वर्येण विना अपि मण्डनं भवति. क्रियापदम् अगेन् भवति किं भवति मण्डनं भूषणं कः मण्डनं भवति त्यागः कीदृशः त्यागः श्लाघ्यः कस्मिन् त्यागः श्लाघः करे पुनः का मण्डनं भवति गुरुपाद प्रणयिता अस्मिन् मण्डनं भवति शिरसि पुनः का मण्डनं भवति वाणी कीदृशी वाणी सत्या अस्मिन् मण्डनं भवति मुखे पुनः किं मण्डनं भवति वीर्यं कीदृशं वीर्यम् अतुलं पुनः कीदृशं वीर्यं विजयी. कयोः मण्डनं भवति भुजयोः पुनः कः मण्डनं भवति वृत्तिः कीदृशी वृत्तिः स्वच्छा कस्मिन् स्वच्छा मण्डनं भवति हृदि पुनः किं मण्डनं भवति श्रुतं कीदृशं श्रुतम् अधिगतं कयोः मण्डनं भवति श्रवणयोः. अरे त्यागः श्लाघ्यः भवति शिरसि गुरुपादप्रणीताः
त्यागः करे मण्डनं भवति गुरुपादप्रणयिता शिरसि मण्डनं भवति इति समानम्.
मुखे सत्यावाणी भवति भुजयोः अतुलं विजयी वीर्यं भवति, हृदि स्वच्छा वृत्तिः भवति, अधिगतं श्रुतं श्रवणयोः अधिगतं श्रुतं भवति, ऐश्वर्येण विना अपि प्रकृतिमहताम् इदं मण्डनं भवति. तात्पर्यार्थः सज्जनानाम् अवयवानाम् आभरणानि एतानि भवन्ति. हस्तस्य भूषणं प्रधानं, मस्तकस्य भूषणं गुरोः पादयोः नमनम्, आननस्य भूषणं ऋतं वाचा, बाहोः भूषणं अनुपमितसुजय पराक्रमम्, हृदः भूषणं कूतिः नीतिः, कर्णयोः भूषणं अनुसञ्चरितं ज्ञानम्. अभूषणानि विना अपि स्वभावेन सज्जनाः शोभन्ते.
सम्यक्, उत्तमम्. सम्यक्.
ओके, व्याकरणांशः करे अकारान्तः पुल्लिङ्गः सप्तमी विभक्ति एकवचनं, श्लाघ्यः अकारान्तः पुल्लिङ्गः प्रथमा विभक्ति एकवचनं, त्यागः अकारान्तः पुल्लिङ्गः प्रथमा विभक्ति एकवचनं, शिरसि सप्तमी सकारान्तः पुल्लिङ्गः सप्तमी एकवचनं,
नपुंसकलिङ्गः शिरः शिरसि शिरांसि.
ओके,
सकारान्तः नपुंसकलिङ्गः शिरस् शब्दः सप्तमी एकवचनम्.
गुरुपाद प्रणयिता सकारान्त स्त्रीलिङ्गम्,
आकारान्त स्त्रीलिङ्ग प्रणयिता सीता.
आकारान्त स्त्रीलिङ्ग प्रथमा एकवचनं, मुखे अकारान्त पुल्लिङ्ग
नपुंसकं मुखम्.
ओके, नपुंसकलिङ्ग सप्तमी एकवचनं, सत्या आकारान्त स्त्रीलिङ्ग प्रथमा एकवचनं, वाणी ईकारान्त स्त्रीलिङ्ग प्रथमा एकवचनं, विजयी ऐ डोंट नो दिस
नकारान्तः नपुंसकलिङ्गः विजयिन्, सो नपुंसकलिङ्गे विजयी विजयिनी विजयिनी. नकारान्तः नपुंसकलिङ्गः प्रथमा एकवचनं.
ओके, भुजयोः अकारान्त पुल्लिङ्गः सप्तमी
द्विवचनम्.
ओके, वीर्यम् अकारान्त नपुंसकलिङ्गः प्रथमा एकवचनम्, अतुलम् अकारान्त नपुंसकलिङ्गः प्रथमा एकवचनं, हृदि दकारान्त पुल्लिङ्गः सप्तमी एकवचनं,
नपुंसकलिङ्गः हृदयं हृत् दकारान्तः नपुंसकलिङ्गः
सप्तमी एकवचनं, स्वच्छा आकारान्त स्त्रीलिङ्गः प्रथमा एकवचनं, वृत्तिः इकारान्त स्त्रीलिङ्गः प्रथमा एकवचनं, श्रुतम् अकारान्त नपुंसकलिङ्गः प्रथमा एकवचनं, अधिगतम् अकारान्तः नपुंसकलिङ्गः प्रथमा एकवचनं, च अव्ययम् श्रवणयोः अकारान्तः नपुंसकलिङ्गः सप्तमी एकवचनं, विना द्विवचनं, विना अव्ययम् अपि अव्ययम्, ऐश्वर्येण अकारान्तः नपुंसकलिङ्गः तृतीया एकवचनं, प्रकृतिमहताम् अकारान्त नपुंसकलिङ्गः षष्ठी एकवचनं बहुवचनं. ओके,
प्रकृतिमहताम्
तकारान्तः नपुंसकलिङ्गः षष्ठी बहुवचनं,
पुल्लिङ्गः महान्तः प्रकृत्या ये महान्तः, सो तकारान्तः पुल्लिङ्गः षष्ठी बहुवचनं.
मण्डनम् अकारान्तः नपुंसकलिङ्गः प्रथमा एकवचनं, इदम् अकारान्तः नपुंसकलिङ्गः मकारान्तः नपुंसकलिङ्गः प्रथमा एकवचनं.
सम्यक्, उत्तमम्.
धन्यवादः.
केऽपि प्रश्नाः सन्ति चेत् पृच्छन्तु. सो प्रणयिता कथं तस्य एतत् इति, आम् प्रणयः, प्रणयः इत्युक्ते प्रीतिः इत्यर्थः. सो प्रणयस्य भाव प्रणयः अस्य अस्ति इति प्रणयी, सो यस्य गुरुपादयोः प्रणयः अस्ति सः गुरुपादप्रणयी he who adores the feet of the gurus so tasya bhavah pranayita so yata amrudoh bhavah amruduta bhavati so gurupada pranayinah bhavah so it is the quality of adoring or respecting the feet of the gurus gurupada pranayita sa shirasi so for the head that affection or the love towards the feet of the guru is the adornment anya kopi prashna ha shrutam adhigatam cha shravanayoh so shravanayoh shrutam so that which is heard and adhigatam adhigatam understood so it is not just listening you have also understood it so tadrisham shravanayoh mandanam bhavati nekepi prashnah shlaghyah so shlagham arhati so shlaghyah tyagah so that which praiseworthy charity so tatra dane api bahuvidham bhavati krishnah कथयति सो सात्विकं राजसं तामसं इति तद्दानं त्रिविधं स्मृतं सो आदेशकाले यद्दानं अपात्रेभ्यश्च दीयते असत्कृतम् अवज्ञातं तत्तामसम् उदाहृतं सो दानं दातुमपि बहवः अंशाः परामृष्टव्याः भवन्ति आदेशकाले युक्तः देशः न अथवा युक्तः कालः न अपात्रेभ्यश्च दीयते ये पात्राणि न दोस् हू डू नॉट डिजर्व सो दान विच इज गिवन इन द रॉन्ग प्लेस और द रॉन्ग टाइम टू दोस् हू डू नॉट डिजर्व असत्कृतम अवज्ञातम एंड इट इज नॉट इवन रेस्पेक्टेड सो तादृशं दानं तामसं भवति वेर एज सात्विकम इज दैट विच इज गिवन in the correct time in the correct place to those who deserve that is shlaghyah tyagah so shlaghya is praiseworthy shlagham arhati iti shlaghyah tyagah atulam veeryam vijayi so veeryam ityasya visheshana dvayam so atulam tula nasti anupamam incomparable valor which also brings victory vijayi so vijayi iti pullinge bhavati vijayi vijayinau vijayinah guni guninau guninah iti yatha napumsakalinge tu vijayi iti bhavati so that which has victory victorious valor incomparable valor ऐश्वर्येण विना अपि प्रकृति महताम् इदं मण्डनम् अग्रे गच्छामः अग्रिमश्लोकः आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् विजयश्री
नमस्ते आयुः पदविच्छेदः आयुः वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं तस्य अर्धस्य परस्य च अर्धम् अपरं बालत्ववृद्धत्वयोः शेषं व्याधिवियोगदुःखसंहितं व्याधिवियोगदुःखसहितं सेवादिभिः नीयते जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् आयुः वर्षशतं विसर्गसन्धि रेपः परिमितं रात्रौ अनुस्वारसन्धि इवन् तदर्थं गतम् आल्सो अनुस्वारसन्धि तस्य अर्धस्य च अर्धमपरं बोत् आर् सवर्दीर्घसन्धि शेषं व्याधिवियोगदुःखसहितं अनुस्वारसन्धि अगेन् व्याधिवियोगदुःखसहितम् अण्ड् सेवादिभिः अनुस्वारसन्धि सेवादिभिः नीयते विसर्गसन्धि रेफः वाक्यविश्लेषणं क्रियापदं नीयते कर्मणि क्रिया गतम् आल्सो इट् केन् बि यूस्ड् एस् क्रिया इसन्ट् इट् देन् सारी परिमितं गतं या आयुः प्रथमाविभक्ति आयुः वर्षशतं परिमितं तदर्थम् अर्धम् अपरं शेषं व्याधिवियोगदुःखसहितं सौख्यं नेक्स्ट् तृतीया विभक्ति सेवादिभिः षष्टि नृणां तस्य अर्थस्य परस्य प्राणिनां सप्तमी विभक्ति रात्रौ बालत्ववृद्धत्वयोः जीवे वारितरङ्गचञ्चलतरे देन् अन्वयं च कुतः अन्वयरचना परिमितम् अस्ति कः परिमितम् अस्ति आयुः केषाम् आयुः परिमितम् अस्ति नृणाम् आयुः एक्चुलि आयुः कति वर्षाणि इस् सपोज़् टु बि सेकेण्ड् सेण्टेन्स् ऐ चेञ्ज् वर्षशतं केषाम् आयुः परिमितमस्ति नृणाम् आयुः परिमितमस्ति देन् आयुः गतम् अस्ति कियत् आयुः गतम् अस्ति तदर्थं वर्षशते अर्थं दट् इस् पञ्चाशत् वर्षाणि तदर्थं कुत्र गतम् अस्ति रात्रौ पुनः कुत्र आयुः गतम् अस्ति बालत्ववृद्धत्वयोः कियत् आयुः बालत्ववृद्धत्वयोः गतम् अस्ति तस्य परस्य अर्धस्य अपरम् अर्थं दट् इस् पञ्चविंशतिवर्षाणि पुनः आयुः कीदृग्भिः नीयते सेवादिभिः नीयते देन् कीदृशः आयुः व्याधिवियोगदु सारी
कीदृशम् आयुः
कीदृशम् आयुः नपुंसकलिङ्गं या व्याधिवियोगदुःखसहितं कियत् आयुः शेषम् आयुः दट् इस् पञ्चविंशतिवर्षाणि सौख्यं कुतः अस्ति केषां सौख्यं प्राणिनां कीदृशां प्राणिनां वारितरङ्गचञ्चलतरे जीवे
तत्तु इट् इस् नाट् अ विशेषण प्राणिनां
हौ शुड् इट् बि
करणीयं सतिसप्तमी प्रयोगः जीवे आलितरङ्गचञ्चलतरे सति प्राणिनां सौख्यं कुतः इत्यर्थः
ओके कीदृशे कीदृशी
अथवा कुत्र इति उक्त्वा साक्षात् जीवे वारितरङ्गचञ्चलतरे जीवे इति किन्तु सत्यन्तः एव प्रयोगः अतः चिन्तयामि thinking what is the question you can ask to link jeeve vaadi taranga chandana agre vadatu vichinte vadatu
yeah so anvayam nrinam aayuhu varshasatam parimitam asti tadartham ratrau gatam tasya parasya ardhasya aparamaddham balatva vruddhatvayoh gatam व्याधिवियोगदुःखसहितं शेषं सेवादिभिः नीयते जीवे वारतरंग चंचलतरे प्राणिनां सौख्यं कुतः व्याकरणांशः गतं नीयते कर्मणि कर्मणि लट्लकारः नी धातु प्रथम एकवचनम् गतं दिस् इस् कृदन्त भूतकालम् प्रत्ययान्त आयुः अकारान्त पुंलिङ्गः प्रथम एकवचनं
आयुः उकारान्त सकारान्त नपुंसकलिङ्ग आयुः शब्दः
actually I have written yes and sakarantam and ukarantam both okay
sakaranta napumsakalinga prathama ekam
okay thank you varshasatam makaranta napumsakalinga prathama ekavachanam
akaranam
tata akaranam which one sorry ndrinam ऋकारान्तः पुंलिङ्गः नृ नृ शब्दः षष्टि बहुवचनं परिमितं प्रथम एकवचनं रात्रौ इकारान्तः स्त्रीलिङ्गः रात्रिशब्दः सप्तमी एकवचनं तदर्थं मकारान्तः नपुंसकलिङ्गः
तदर्थ शब्दः
तदर्थ ओके थैंक यू तदर्थ शब्द प्रथम एकवचनम गतम क्रियापदम तस्य दकारांत पुंलिंग तद्शब्द षष्टि एकवचनम अर्थस्य अकारांत नपुंसकलिंग षष्टि एकवचनम दिस इज आल्सो अकारांतः नो या परस्य अकारांत नपुंसकलिङ्गः षष्टि एकवचनम् क्या अव्ययम् अर्धम् अकारांत नपुंसकलिङ्गः प्रथम एकवचनम् अपरम् अकारांत नपुंसकलिङ्गः प्रथम एकवचनम् बालत्व वृद्धत्वयोः अकारांतः इज इट करेक्ट अकारांतः सप्तमी बहु सप्तमी द्विवचनम् शेषम् दिस् ऐ एम् नाट् श्योर् केन् यु प्लीस् टेल् मी विच्
अकारान्तः नपुंसकलिङ्गः प्रथम एकवचनम्
ओके थेङ्क् यू व्याधिवियोगदुःखसहितम् अकारान्तः नपुंसकलिङ्गः प्रथम एकवचनम् सेवादिभिः I'm not sure about this.
Ikarantasevadi shabda. So, sevadi ne sevadi bhi. So, ikarantaha napumsakalingaha
tritiya
bahuvachanam.
Bahuvachanam, yeah. Jive akarantaha pumlingaha saptami ekavachanam. Varitaranga chanchalatare akarantaha pumlingaha सप्तमी एकवचनं सौख्यं मकारान्तः नपुंसकलिङ्गः ओ सौख्यः प्रथम एकवचनं कुतः अव्ययं प्राणिनाम् अकारान्तः पुंलिङ्गः नकारान्तः पुंलिङ्गः षष्टि बहुवचनम् तात्पर्यम् ऐ डिडन्ट् राइट् बिकास् ऐ एम् टेम्प्टेड् टु राइट् द सेम् वाट् यु हेव् सेड् सो ऐ डिडन्ट् राइट्
चिन्ता नास्ति
थैंक यू
सः उत्तमं सम्यक् कृतं सो अर्थः अवगतः स्यात् नृणाम् आयुः वयःकालः जीवनकालः वर्षशतं परिमितं परिमितं हेस् बीन् मेजर्ड् सो इति निश्चितम् अस्ति निश्चितं न परिमितम् इस् मेजर्ड् इत्येव अर्थः सो कियत् परिमितम् अस्ति वर्षशतं सामान्यतः यदि अन्यत् इत्युक्ते रोगादयः अथवा अपघातादिकं किमपि न भवति पूर्णम् आयुः इत्युक्ते वर्षशतम् इति परिमितम् अस्ति तदर्थं तस्य आयुषः अर्धं रात्रौ गतम् तस्य परस्य अर्धस्य अर्धं यच्छिष्टं अर्धं तत्र अर्धं बालत्ववृद्धत्वयोः गतं शेषं परिशिष्टं कियदस्ति इट्स ओन्ली 25% लेफ्ट् पञ्चविंशतिः वर्षाणि तदपि कीदृशं भवति व्याधिवियोगदुःखसहितं कदाचित् व्याधयः भवन्ति कदाचित् वियोगः कश्चिन् म्रियते अथवा दुःखम् अन्यत् किमपि दुःखं भवति सेवादिभिः नीयते तदपि अन्येषां सेवायाम् अस्माभिः नीयते एतत् सर्वमेव क्लेशः तत्रापि एतत् पूर्णमायुः लभ्यते इत्यपि नास्ति जीवे वारितरङ्गचञ्चलतरे वारिनः तरङ्गाः वारी जलं जलस्य तरङ्गाः अत्यन्तं चञ्चलाः भवन्ति चञ्चलतरे सो मोर् फिकल् देन् द वेव्स् आफ् वाटर् सो लैफ् इट्सेल्फ् इस् मोर् फिकल् सो यदि पूर्णमायुः अस्ति तदापि तत्र एतावन्तः क्लेशाः इत्युक्ते द फ्रूट्फुल् पार्ट् आफ् लैफ् इस् वेरि लेस् ईवन् वेन् यु आर् अस्यूमिङ्ग् अ कम्प्लीट् लैफ् टैम् आफ् 100 इयर्स् एण्ड् दट् लैफ् टैम् इस् नाट् ग्यारण्टीड् टु एव्रिबडि इट् इस् लैक् एस् स्टेडि एस् द वेव्स् आफ् वाटर् ऐ मीन् यु नेवर् नो वेन् यु डै एवं सति प्राणिनां कुतः सौख्यं कथं वा सौख्यं प्राप्तुं शक्यते इति वैराग्यशतकस्य श्लोकः इति स्मर्तव्यम् अतः वैराग्यप्रधानः श्लोकः अतः शम्भोः भजनं कर्तव्यम् इति अन्येषु श्लोकेषु कथ्यते भर्तृहरिणा अत्र प्रश्नाः सन्ति चेत् पृच्छन्तु नृ शब्दस्य प्रथमाविभक्तौ रूपाणि कथं भवन्ति ना नरौ नरः नर इति अकारान्तः शब्दः अपि अस्ति नरः नरौ नराः इति नृ इति ऋकारान्तशब्दः अपि अस्ति ना नरौ नरः नरं नरौ नृन् नृा नृभ्यां नृभिः नृरे नृभ्यां नृभ्यः नुः नृभ्यां नृभ्यः नुः नृणोः नृणां नृणाम् उभयमस्ति नरि नरोः नृषु इति रूपाणि ऋकारान्तस्य अत्र तदेव अन्ते जीवे वारितरङ्गचञ्चलतरे इत्यत्र अन्वयार्थं कस्मिन् प्रसङ्गे इति वक्तुं शक्यते अथवा कदा इति प्रष्टुं शक्यते सो वारितरङ्गचञ्चलतरे सति सो जीवे वारितरङ्गचञ्चलतरे सति प्राणिनां सौख्यं कुतः इति अन्वयः अन्ये केऽपि प्रश्नाः सो अग्रिमसप्ताहस्य श्लोकान् पश्यामः फलमलमशनाय स्वादुपानाय तोयं क्षितिरपि शयनार्थं वाससेवल्कलं च नवधनमधुपानभ्रान्तसर्वेन्द्रियाणाम् अविनयमनुमन्तुं नोत्सहे दुर्जनानाम् सो दुर्जनानाम् अविनयम् अनुमन्तुं न उत्सहे सो दुर्जनाः सन्ति अत्यन्तम् अविनयः हु आर् एक्स्ट्रीम्लि आरोगेण्ट् सो ऐ न उत्सहे ऐ डोण्ट् वाण्ट् टु अनुमन्तुं सो टु accede to the arrogance of durjanaha kidrishaha durjanaha navadhana so nutanataya aishwaryam labdham madhupana is drink so those bhranta sarvendriyana whose all complete sense organs are confused by navadhana fresh wealth and madhupana drink so tadrishanam durjananam avinayam anumantum notsahe ataha ashanaya phalam alam so thing is you can ignore or not accede to such evil men only when you do not have any desires. So ataha kathayati ashanaya phalam alam. So khaditum kutrapi vrikshat phalani santi chet paryaptam. Panaya swadu toyam paryaptam. So patum jalam nadyam swadu jalam pravahati. So tasmin kale asit. So swadu toyam pravahati tena alam. Shayanartham kshitihi. Shayanam kartum bhumihi asti. Vasase valkalam cha. Dhartum valkalam. Valkala is the bark garment. So ataha these are the minimal needs which can be fulfilled by nature. Tadartham etadrishanam durjananam sevam kartum nechhami iti kavehe kathanam. Vairagya shatakasya anyaha prasiddhaha shlokaha. Bhoge roga bhayam kule chiti bhayam vittendra palad bhayam maune dainya bhayam bale ripu bhayam rupe jaraya bhayam shastre vada bhayam gune khala bhayam kaye krutanta bhayam sarvam vastu bhayanvitam bhuvindranam vairagyam eva bhayam. So the essence of vairagya shataka, vairagyam eva abhayam. So the only thing which frees from fear is vairagya. Anyat sarvam api bhayam janayati. Bhoge roga bhayam. Yada bhoga asti. So we eat whatever we want. You have the wealth to eat or to order and eat. Roga bhayam. So kaha roga kada bhavati iti bhayam bhavati. Kule chuti bhayam. Uttame kule janma bhavati ches. Chuti hi kutra apamananena vamshasya hanihi bhavati iti bhayam. Vitte nirpalad bhayam. Yadi bahu dhanam asti tarhi IT raids. Nirpalad bhayam. So bhayam bhavati rajyaha. Maune dainya bhayam. Yatra mauninaha bhavamaha gunaha maunam gunaha. Kintu tatrapi dainya bhayam. So dainyam iti chintayanti. Ataha tasmadapi bhayam. Bale ripu bhayam. Yadi bahu balam asti tada shatravaha akramanam kurvanti iti bhayam. Rupe jarayaha bhayam. Yadi bahu saundaryam asti tarhi kadava vardhakyena rupam nashyati iti bhayam. Shastre vada bhayam. Yadi samyag adhyayanam kritam tarhi vada bhayam. Tasmin kale vadaha bhavanti. Yakopi agatya vadartham ahvayati tarhi vadaha karaniyaha. No chet parajayaha. Ataha samyag adhyayanam kritam chedapi vada bhayam. Gune khala bhayam. So yadi sadgunaha santi tathapi dushtaihi dushtebhyaha bhayam bhavati. Te kim kada nashayanti iti irshaya. Kaye krutantat bhayam. Kaye dehe krutantaha yamaha. So sarvada marana bhayam tu sarva sarvatra bhavatyeva. Sarvam vastu bhayanvitam bhuvinranam. So sarvam api bhayanvitam vairagyam eva bhayam. So kenachid uchyate pustake mane dainya bhayam ityasti. So manam abhimana. So yatra self respect asti tatra dainya bhayam. So the fear of losing that self respect and having to beg somebody, tadbhayam bhavati. So paathantaram vidyate. I'll change this according to the book. So there is one more, if possible you can try it, because we are nearing the end of the course. So shloka trayam asti prayatnam kurvantu. So asha nama nadi manoratha jala trishna tarangakula raga grahavati vitarka vihaga dhairya drumadhvamsini mohavarta sudustarati gahana rottunga chintatati tasyah paragata vishuddha manasaha nandanti yogishvaraha. Asha nama nadi. Asha, desire, is like a river. So tasyah varnanam kurvanti nadyah tasyah paragataha. Ye asha Namim Nadim Taranti, those who have crossed the river of desire. So Kidrishaha Yogishwaraha. So Yogishwaraha Eva Ashandim Kartum Shaknuvanti. Kidrishaha Vishuddha Manasaha. So those with pure hearts, so te nandanti, they delight. So Anya Sarve Nadyam Nimagnaha Dukkhamanubhavanti. So Kidrishi Asha Nama Nadi Manoratha Jala. So Manoratha, the different desires of the mind, they are the water. Trishna Tarangakula. So there are waves of Trishna. Trishna is greed. I mean, they are all different kinds. Manoratha, Trishna, Raga. Raga is attraction. So that is Graha. Graha is crocodiles. So attraction is like crocodiles. So filled with the crocodiles called Raga. Vitarka Vihaga. Vihagaha Pakshinaha. Vitarka Vitarkaha. So there are different meanings for Vitarka. So samshayaha iti samanyataha uchyate. Dhairya drumadhvamsini. So that which destroys the tree of dhairya. So if there is a flood of the desire, then the dhairya is lost. Moha varta sudustara. Avarta is whirlpools of moha, delusion. So sudustara, very difficult to cross because of the whirlpools of moha. Atigahana, it is very deep. Protunga chinta tati, and the banks are very high. I mean, even if you try to cross, you cannot climb onto the bank. Why? Uttunga chinta tati. So chinta, which is very high. So severe worries are like the banks. Tasyaha paragataha. So etadrishi asha nadi. Tam ye taranti yogishwaraha te nandanti. Ityarthaha. So please try to do at least one shloka. See, the thing is, shlokanam anvayaha, it is the one way to empower yourself to study any text by yourself. If you can master the art of this one, it is just as you see a shloka, you are able to understand it. You are able to analyze it and understand it. There may be one or two words which you do not understand. You learn to look at koshas. Then you will be able to read any Sanskrit text by yourself. So, gadyam va bhavatu, padyam va bhavatu. Yedi anvayakarane samarthyam praptam. Tarhi yatkimapi kavyam va shastram va swayam adhyetum shaktihi bhavati. This is the first step. So, of course, you will always have to rely on commentaries. Kintu yedi etavat kartum shakyate. Shlokam drashtva tasya samanyataha anvayaha. Samanyataha arthavagamanam. Yatra samshayaha tatra vyakhyanam drishtvava avagamanam bhavet. Tarhi yakkopi granthaha svayam adhyetum shakyaha. The most empowering technique in Sanskrita is this. To analyze a shloka and to understand it. Okay. So please try to do it. And Vadya Shatra Pratyayantaha Katham Visheshanatvena Prayujyate Bhinnasu Vibhaktishu Iti Jnatavantaha Pullinge Sarva Vibhakti Vachanantani Rupani Drishtani Vakyeshu Prayogaha Api Adhitaha Subhashiteshu Subhashitadvayam Drishtam Kareshlaghyastyagaha Ayurvarshashatam Nrinam Parimitam. So Shvaha Vardaha Bhavati Shatrapratyantasya anuvartanam kurmah. Gurureva gatir gurumeva bhaje gurunaiva sahasmi namo gurave na guruh paramam shishurasmi gurur matirasmi gurau mamapahi guruh.